श्री भगवान उवाच, भूय एव महाबाहो शृणु मे परमं वचः, यत्तेहं प्रियमाणाय वक्ष्यामि हितकाम्यया। नमे विदुः सुरगणाः प्रभवं न महर्षयः, अहमादिर्हि देवानां महार्षीणां च सर्वशः। यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम्, असमूढः समर्त्येषु सर्वपापैः प्रमुच्यते। बुद्धिर्ज्ञानम् असं मोहः, क्षमा सत्यं दमः शमः, सुखं दुःखं भवो भावो भयं चाभयम् एव च, अहिंसा समता तुष्टिस्तपो दानं यशो यशः, भवन्ति भावा भूतानां मत्त एव पृथग्विदाः। महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा, मद्भावा मानसा जाता येषां लोक इमाः प्रजा। एतां विभूतिं योगं च ममयो वेत्ति तत्त्वतः, सो विकल्पेन योगेन युज्यते नात्र संशयः। अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते, इति मत्वा भजन्ते मां बुधा भावसमन्विताः। मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परं, कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं, ददामि बुद्धियोगं तं येन माम् उपयान्ति ते। तेषाम् एवानुकं पार्थम् अहम् अज्ञानजं तमः, नाशयाम् यात्मभावस्थो ज्ञानदीपेन भास्वता। अर्जुन उवाच, परं ब्रह्म परं धाम पवित्रं परमं भवान्, पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुम्। आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा, असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे। सर्वम् एतद्रुतं मन्ये यन्मां वदसि केशव, नहि ते भगवन् व्यक्तिं विदुर्देवान दानवाः। स्वयमेवात्मनात्मानं वेत्तत्वं पुरुषोत्तम, भूतभावन भूतेश देवदेव जगत्पते। वक्तुम् अर्हस्यशेषेण दिव्या ह्यात्मविभूतय, याभिर्विभूतिभिर्लोकान् इमां स्त्वं व्याप्यतिष्ठसि। कथं विद्यामहं योगिं स्त्वां सदा परिचिन्तयन्, केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया। विस्तरेणात्मनो योगं विभूतिं च जनार्दन, भूयः कतयः तृप्तिर्हि शृण्वतो नास्ति मे मृतम्। श्रीभगवानुवाच, हन्तते कथयिष्यामि दिव्या ह्यात्मविभूतयः, प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे। अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः, अहमादिश्च मध्यं च भूतानाम् अन्त एव च। आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्, मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी। वेदानां सामवेदोऽस्मि देवानामस्मि वासवः, इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना। रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसां, वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्। पुरोधसां च मुख्यं मां विधि पार्थ बृहस्पतिम् सेनानीनामहं स्कन्दः सरसामस्मि सागरः महर्षीणां भृगुरहं गिरामस्म्येकमक्षरं यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः उच्छैश्रवसमश्वानां विधिमामृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् आयुधानामहं वज्रं धेनूनामस्मि कामधुक् प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः अनन्तश्चास्मि नागानां वरुणो यादसामहं पितॄणाम् अर्यमा चास्मि यमः संयमतामहम् प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहं मृगाणं च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् पवनः पवतामस्मि रामः शस्त्रभृतामहं जशाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी सर्गाणाम् आदिरन्तश्च मध्यं चैवाहम् अर्जुन अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् अक्षराणामकारोऽस्मि द्वन्द्वसामासिकस्य च अहमेवाक्षयः कालो धाताहं विश्वतो मुखः मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम् कीर्तिश्रीर्वाक्च नारीणाम् स्मृतिर्मेधा धृति क्षमा बृहत्साम तथा साम्नाम् गायत्री छन्दसामहम् मासानाम् मार्गशीर्षोऽहम् ऋतूनाम् कुसुमाकरः द्यूतम् छलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वम् सत्त्ववतामहम् वृष्णीनाम् वासुदेवोऽस्मि पाण्डवानाम् धनञ्जयः मुनीनामप्यहम् व्यासः कवीनाम् उशनाकविः दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् मौनम् चैवास्मि गुह्यानाम् ध्यानम् ध्यानवतामहम् यच्चापि सर्वभूतानाम् बीजम् तदहम् अर्जुन न तदस्ति विना यत्स्यान् मया भूतम् चराचरम् नान्तोऽस्ति मम दिव्यानाम् विभूतिनाम् परन्तप एषत् उद्देशतः प्रोक्तो विभूतेर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वम् श्रीमदूर्जितम् एव वा तत्तद् एवावगच्छत्वम् मम तेजोंशसम्भवम् अथवा बहुनैतेन किम् ज्ञातेन तवार्जुन विष्टभ्याहम् इदम् कृत्स्नम् एकांशेन स्थितो जगत्।